एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। दशमः संविधान दिवसः राष्ट्रिय दिवसश्च पूर्वेद्युः विविधैः कार्यक्रमैः समायोजितो वर्तते। दशवर्षेभ्यः पूर्वम् द्विसप्तत्युत्तर द्विसहस्रतम विक्रमाब्दस्य आश्विन मासस्य तृतीये दिवसे संविधान सभया नेपालस्य वर्तमान संविधानम् क्रियान्वितम् आसीत् इत्यतः प्रतिवर्षम् आश्विन मासस्य तृतीयो दिवसः राष्ट्रिय दिवसत्वेन संविधान दिवसत्वेन च समाद्रियते। वर्तमान संविधानस्य निर्माणाय बहुनाम् हुतात्मनाम् योगदानमस्ति। देशस्य वर्तमानायाम् परिवर्तितायाम् परिस्थितौ संविधानस्य क्रियान्वयनेनैव सर्वासाम् समस्यानाम् समाधानम् सम्भवति इति मत्वा संविधान निर्माणस्य दशवर्षाणाम् पूरणस्य अवसरे ह्यः शुक्रवासरे विशेष समारोह समायोजित। टुडीखेलवर्तिनी सैनिक मञ्चे राष्ट्रपतेः रामचन्द्र पौडेलस्य प्रमुखातिथ्ये समायोजिते समारोहे प्रधानमन्त्रिणा सुशीला कार्किणा सम्बोधनम् विहितम् चासीत्। समारोहे उपराष्ट्रपतिः प्रधान न्यायाधीशः मन्त्रिणः सर्वकारस्य उच्चपदस्थाधिकारिणश्च सहभागिनः आसन्। काष्ठमण्डपाद् बहिरपि सर्वेषु प्रदेशेषु जनपदेषु च प्रदेशस्थानीयस्तराणाम् सर्वकारैः विभिन्नैः राजनीतिकदलैश्च विविधान् कार्यक्रमान् आयोज्य दशमः संविधान दिवसः राष्ट्रिय दिवसश्च समायोजितो वर्तते। एतदवसरे पूर्वेद्युः शीतल निवासवर्तिनी राष्ट्रपति कार्यालये आयोजिते जलपान समारोहे राष्ट्रपतिः पौडेलः असहमतेः पूर्वाग्रहस्य च धरणेन विना निर्धारित समय एव निर्वाचनस्य सम्पादनस्य भूमिकाम् निर्वोढुम् सर्वान् अन्वरुणात्। राष्ट्रपतिः पौडेलः संसदा सर्वकार निर्माणस्य अवस्थायाः अभावानन्तरम् तात्कालिकम् संकटम् समाधातुम् सर्वसहमतेः आधारेण संसदः विघटनम् विहितम् इति तथ्यस्य मननम् कृत्वा नूतन निर्वाचनस्य माध्यमेन प्रतिनिधिसभायाः पुनस्थापनस्य मार्गे प्रवर्तितुम् सर्वान् आह्वयत्। संविधान दिवसस्य अवसरे ह्य काष्ठमण्डपस्य टुडीखेलस्थाने आयोजितम् समारोहम् सम्बोधयन्ती प्रधानमन्त्री सुशीला कार्की राज्यस्य सर्वेषु संयन्त्रेषु यूनाम् उपस्थितिः युवभिः ईप्सितास्ति इत्यतः तदनुसारेणैव कार्यम् विधातुम् सर्वकारः प्रतिबद्धोऽस्तीति प्रत्यपादयत्। प्रधानमन्त्री कार्की संविधानस्य अक्षरेभ्यः जनतायाः भावना सर्वोपरि भवतीत्यतः आवश्यकतायाम् सत्याम् संस्थागतरूपेण विधिम् संशोध्य अपि जनतायाः सेवायाः प्रभावकारिण्यः सम्पादनस्य आवश्यकताम् न्यश्चिनोत्। तदवसरे प्रधानमन्त्री कार्की संविधानेन संघ प्रदेश स्थानीय स्तरेभ्यः अधिकाराणाम् आवंटनम् कृत्वा जनतायै गुणस्तरीय रूपेण शीघ्र प्रक्रियातः सेवायाः प्रदानस्य आधारः निर्मितः परम् जनतायाः भावनायाः आवश्यकतायाश्च अनुसारेण राज्य संयन्त्रम् क्रियाशीलम् न सञ्जातम् इत्यतः युवानः आन्दोलने प्रवर्तितुम् बाध्यात्मकावस्थायाम् प्राप्ताः इति समस्पष्टयत्। तदवसरे प्रधानमन्त्रिणा कार्किणा जेएनजी युव प्रदर्शनस्य क्रमे सम्भूतायाः सार्वजनिक सम्पदाम् सम्पदः पुनर्निर्माणम् कर्तुम् निर्धारित समय एव निर्वाचनस्य सम्पादनाय सहयोक्तुम् च सम्पूर्ण युवानः अनुरुद्धाः आसन्। नेपाली कांग्रेस दलेन गत भाद्रस्य त्रयोविंशे चतुर्विंशे च दिवसयोः वीतस्य युव प्रदर्शनस्य क्रमे घटितायाः घटनायाः सत्यतथ्ये अनुसन्धाय दोषिणोः जनाः विदेहे परिधौ आनेतुम् उच्चस्तरीय न्यायिकानुसन्धानायोगम् संघटयितुम् अभियाचितम् वर्तते। सानेपावर्तिनी केन्द्रीय कार्यालये पूर्वेद्युः उपसभापतेः पूर्णबहादुर खड्काविदस्य अध्यक्षतायाम् कांग्रेस केन्द्रीय सदस्येषु दलस्य कार्य सम्पादन समितेः नेतृषु च सम्भूते विमर्शने उच्चस्तरीय न्यायिकायोग संघटनस्य याचनाम् विधातुम् निर्णीतमस्तीति नेपाली कांग्रेस दलस्य प्रचार विभाग प्रमुख मीन विश्वकर्मा असूचयत। उपवेशेन जेएनजी युवा समूहस्य प्रदर्शनस्य क्रमे आपराधिक समूहेन देशस्य प्रमुख प्रशासकीय केन्द्रे ऐतिहासिक सीमा प्रासादादि क्षेत्रेष् च अग्निदाह त्रोटन भञ्जनादि कार्याणि विहितानि सन्तीति निश्चित्य घटनायाः सत्य तथ्य अनुसन्धाय दोषिणः विधेः परिधौ आनेतुम् आयोगेन अभियाचितमस्तीति प्रचार विभाग प्रमुख विश्वकर्मा असूचयत्। नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमला दाहाल प्रचण्डेन संविधानस्य संशोधनाय निर्वाचनस्य वातावरणं निर्मातुं च परिश्रमः विधेयः इति उक्तं वर्तते। संविधान दिवसस्य अवसरे दलस्य पेरिस डाँडावर्तिनी केन्द्रीय कार्यालये ह्य आयोजिते कार्यक्रमे अध्यक्ष प्रचण्डः अतःपरं निर्धारित समये निर्वाचनं सम्पाद्य जेएनजी युवसन्ततेः आन्दोलनस्य भावनायाः अनुसारेण प्रत्यक्ष निर्वाचित कार्यकारी राष्ट्रपतेः निर्माणस्य मार्गः सांविधानिक रूपेण प्रशस्ति भवतु इति स्वस्य मनोभावनास्तीति उदैरयत्। ऊर्जा जल स्रोत सेचन भौतिक पूर्वाधार नगरीय विकास मन्त्रालयस्य अन्तर्गतानि दीर्घकालात् कार्यं न कृत्वा असहायावस्थां प्राप्तानि जीर्ण विकासायोजनानां निर्माणानुबन्धनानि निरस्यन्ते। ऊर्जा जल स्रोत सेचन भौतिक पूर्वाधार यातायात नगरीय विकास मन्त्री कुलमान घिसिङ प्राक्तन त्रयाणामेव मन्त्रालयानां सचिवान् विभागीय प्रमुखाञ्च जीर्णयोजनानां सूचीं तत्कालं निर्माय प्रस्तोतुं निरदिशत। त्रयाणामेव मन्त्रालयानां कार्याणाम् अवस्थां ज्ञात्वा मन्त्री घिसिङ कार्यम् अविदताम् निर्माण व्यवसायीनां मुखस्य दर्शनेन विना आयोजनाः असहायावस्थायां स्थापयितुं न दास्यन्ते इति उदघोषयत्। गत भाद्रमासस्य त्रयोविंशे चतुर्विंशे च दिवसयो जेएनजी युवा प्रदर्शनस्य कारणेन आराष्ट्रम विद्यमानेभ्य सप्तविंशतेः कारागारेभ्य नवभ्यः बाल सुधार गृहेभ्यश्च अधुनावधि अष्टौ सहस्राणि षोडशाधिकाष्ट शतम् च बन्दीजनाः पलायिताः सन्तीति कारागार व्यवस्थापन विभागेन ज्ञापितं वर्तते। विभागस्य निर्देशकस्य चोलेन्द्र न्यूपाने इत्यस्य अनुसारेण सप्तविंशतेः कारागारेभ्य सम्पूर्णेषु एकोनत्रिंशत् सहस्रेषु द्वादशाधिक शत द्वये बन्दीजनेषु त्रयोदश सहस्राणि एकनवत्युत्तर पञ्चशतं च बन्दीजनः सहस्रे द्वाविंशत्युत्तर शत चतुष्टये च बन्दीजनेषु चतुष्षष्ट्यधिक नवशतं च जनाः बाल सुधार गृहेभ्यश्च पलायिताः आसन्। निर्देशक न्यौपाने अधुनावधि कारागारेभ्य पलायितेषु जनेषु पञ्चसहस्राणि पञ्चनवत्युत्तर शत चतुष्टयम् च बाल सुधार गृहात् पलायितेषु चत्वारिंशदुत्तर शतद्वयम् च बन्दीजनाः कारागारम् पुनः प्रत्यावर्तिताः सन्तीति असूचयत्। अधुनापि पलायितानाम् अष्टानाम् सहस्राणाम् षोडशाधिकाष्ट शतस्य च कारावासिनाम् जनानाम् अन्वेषणम् विधीयमानम् वर्तते इति विभागेन ज्ञापितमस्ति। एवमेव नेपाल प्रहरिणा नियन्त्रणे विद्यमानाः बहवः जनाः इदानीम् पलायिताः सन्ति तेषामपि अन्वेषणकार्यम् सञ्चलदस्तीति च प्रहरिणा ज्ञापितम् वर्तते। ऊर्जा जल स्रोत सेचन भौतिक पूर्वाधार नगरीय विकास मन्त्री कुलमान घिसिङ सिंह प्रासाद परिसरे निर्माणाधीनस्य संसद भवनस्य निर्माण कार्यम् यथा कथञ्चिदपि आगामिनः पौष मासस्य अभ्यन्तरे सम्पादनीयमिति उक्तवान् वर्तते। नगरीय विकास मन्त्रालयस्य सचिवेन गोपाल सिग्देलेन विशेष भवन निर्माणायोजना समन्वय कार्यालयस्य आयोजनायाः परामर्शदात्रा निर्माण व्यवसायिना च सह ह्य भवन निर्माणस्य विषये विमर्शनं विदधान मन्त्री घिसिङ पौष मासान्तं यावत् निर्माण कार्यस्य सम्पादनत्वेन कार्यम् अग्रे वर्धयितुं निरदिशत् इति समाचाराः।